अथ द्वितीयोध्याय व्यास उवाच इति संप्रश्न संधिष्टो विप्राणाम रौम हर्षणी प्रतिपूज्य वचस्तेषां प्रवक्तुम उपचक्रमे सूत उवाच यम प्रव्रजन्तमनुपेतमपेत कृत्यं द्वैपायनो विरह कातरया जुहाव पुत्रेति तन्मयतया तरवो विनेदुस्तं सर्वभूतहृदयं मुनिमानथोऽस्मि यः स्वानुभावमखिल श्रुतिसारमेकमध्यात्मदीपमतितीर्षतां तमोन्नं संसारिणां करुणयाः पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनां नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् मुने साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलं यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे अहेत्युक्यप्रतिहतः अहेतुकीयप्रतिहतः ययात्मा सम्प्रसीदति अहेतुक्यप्रतिहतः ययात्मा सम्प्रसीदति वासुदेवी भगवती भक्तियोगः प्रयोजितः जनयत्याशु वैराग्यं ज्ञानञ्च यदहैतुकं धर्मस्वनुष्ठितः पुंसां विश्वक्सेन कथा सुयः नोत्पादयेद् यतिरतं श्रम एव हि केवलं धर्मस्य यापि वर्ग्यस्य नार्थोऽर्थायोपकल्पते ये नार्थस्य धर्मैकान्तस्य कामोलाभाय हि स्मृतः कामस्य नेन्द्रियप्रीतिर्नाभो जीवेत यावता जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयं ब्रह्मेति परमात्मेति भगवानिति शब्द्यते शब्दधानामुनयः ज्ञानवैराग्ययुक्तया पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया अतः पुंभिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणं तस्मादेकेन मनसा भगवान् सात्वतां पतिः श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा यदनुध्यासिना युक्ताः कर्मबन्धिनिबन्धनम् छिन्दन्ति को विदास्तस्य को नु कुर्यात् कथारतिं शुश्रूषो शब्दधानस्य वासुदेव कथा रुचिः स्यान्महत्सेवया विप्रः पुण्यतीर्थनिषेवणात् शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः हृद्यन्तस्थो यभद्राणि वितुनोति सुरित्सतां नष्टप्रायेष्वभद्रेषु नित्यं भागवत सेवया भगवत्युत्तम श्लोके भक्तिर्भवति स्नैष्ठिकी तदा रजस्तमो भावः कामलोभादयाश्च ये चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति एवं प्रसन्न मनसो भगवद्भक्तियोगतः भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया क्षीयन्ते चासि कर्माणि दृष्टे एवात्मनीश्वरे अतो वै कवयो नित्यं भक्तिं परमया मुदा वासुदेवे भगवति कुर्वन्त्यात्मप्रसीदनीं सत्त्वं रजस्तमैति प्रकृतिर्गुणास्तैर्युक्तः परः पुरुष एकैहास दत्ते स्थित्यादये हरिविरिञ्चि हरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणाम् स्युः पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमय तमसस्तु रजस्तस्मात् सत्त्वं यद्ब्रह्म दर्शनम् भेजरे मुनियोथाग्रे भगवन्तं मधोक्षजं सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येनुतानिह मुमुक्षवो घोररूपान् हित्वा भूतपतिनथ नारायण कला शान्ता भजन्ति अनुसूयव रजस्तमः प्रकृतयः समशीला भजन्ति वै पितृभूत प्रदेशादीन् श्रियैश्वर्य प्रदेप्सव वासुदेव परा वेदा वासुदेव परा मखा वासुदेव परा योगा वासुदेव परा क्रियाः वासुदेव परं ज्ञानं वासुदेव परं तपः वासुदेव परो धर्मो वासुदेव परा गतिः स एवेदं स सर्जाग्रे भगवान् आत्ममानीय सत्सद्रूपया चासौ गुणमय्या गुणो विभुः तया विलसते स्वेषु गुणेषु गुणवानिव अन्तः प्रविष्ट आभाति विज्ञानेन विजृम्भितः तथा यथा यवितो वनिर्दारुष्वेक स्वयोनिषु नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् भावयत्येष सत्त्वेन देलोकान्वै लोकभावनः लीलावतारानुरतो देवत्रियं नरादिषु। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः।